व्यवस्थापकाय च धर्मस्य सर्वधर्मस्वरूपिणे अवतारवरिष्ठाय रामकृष्णाय ते नमः। भज गोविन्दं भज गोविन्दं भज गोविन्दं भज गोविन्दं गोविन्दं भज मूढमते भज गोविन्दं गोविन्दं भज मूढमते संप्राप्ते सन्निहिते काले संप्राप्ते सन्निहिते काले नहि नहि रक्षति दुख करणे नहि नहि रक्षति दुख करणे भज गोविन्दं भज गोविन्दं जहिहि धनागमतृष्णा मूढ जहिहि धनागमतृष्णा पुरुषद्बुद्धिं मनसि वितृष्णा पुरुषद्बुद्धिं मनसि वितृष्णा यल्लभसे निज कर्मोपातम् यल्लभसे निज कर्मोपातम् वित्तं तेन विनोदय चित्तम् भज गोविन्दं भज गोविन्दं गोविन्दं भज मूढमते यावत् वित्तोपार्जन शक्तः काल सर्वं मा कुरु धन जन यौवन कर्म हरति निमेष काल सर्वं माया मयमिदं अखिलं विदित्वा भज गोविन्दं भज गोविन्दं गोविन्दं भज मूढमते सुरमन्दिरतरु मूलनिवासः शय्याभूतलम् अजिनं वासः सुरमन्दिरतरु मूलनिवासः शय्याभूतलम् अजिनं वासः सर्वपरिग्रह भोगत्यागः सर्वपरिग्रह भोगत्यागः कस्य सुखं न करोति किञ्चिदधीता भगवद्गीता किञ्चिदधीता गङ्गाजललं कणिकापीता भगवद्गीता किञ्चिदधीता गङ्गाजललं कणिकापीता सकृदपियेन सकृदपियेन मुरारि समर्च सकृदपियेन मुरारि समर्च क्रियते तस्य यमेन न चर्चा क्रियते तस्य यमेन न चर्चा भज गोविन्दं भज गोविन्दं भज गोविन्दं भज गोविन्दं पुनरपि जननम् पुनरपि मरणम् पुनरपि जननम् पुनरपि मरणम् पुनरपि जननी जठरे शयनम् पुनरपि जननी जठरे शयनम् इह संसारे बहुदुस्तारे इह संसारे बहुदुस्तारे कृपया पारे पाहि मुरारे कृपया पारे पाहि मुरारे सहस्रं ध्येयं श्रीपति रूपमजस्वं ध्येयं गीता नमसहस्रं ध्येयं श्रीपति रूपमजस्वं ध्येयं सज्जन सङ्गे चित्तं ध्येयं सज्जन सङ्गे नास्ति तद् सुखलेश सत्यम् अर्थमनर्थं भावय नित्यं नास्ति तद् सुखलेश सत्यम् पुत्रादपि धनभाजं भीतिः पुत्रादपि धनभाजं भीतिः सर्वत्रैषा विहितारीतिः सर्वत्रैषा विहितारीतिः भज गोविन्दं भज गोविन्दं गोविन्दं भज मूढमते गुरुचरणाम्बुज निर्भर भक्तः संसार रचिराद्भवमुक्तः गुरुचरणाम्बुज निर्भर भक्तः संसार रचिराद्भवमुक्तः सेन्द्रियमानस नियमादेवं सेन्द्रियमानस नियमादेवं द्रक्षसि निज हृदयस्थं देवं रक्षसि निज హృదయస్థం దేవం భజ గోవిందం భజ గోవిందం గోవిందం భజ మూఢమతే భజ గోవిందం భజ గోవిందం గోవిందం భజ మూఢమతే